हरि नाम साष्टसहस्रञ्च ब्रूहि गार्ग्य महामते महालक्ष्म्या महादेव्या भुक्ति मुक्त्यर्थसिद्धये श्री गार्ग्य उवाच सनत्कुमारमासीनं द्वादशादित्यसन्निभम् अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये सर्वलौकिककर्मभ्यो विमुक्तानां हिताय नै भुक्तिमुक्तिप्रदं जप्यमनुब्रूहि दयानिधे सनत्कुमार भगवन् सर्वज्ञोऽसि विशेषतः आस्तिक्यसिद्धये नृणां क्षिप्रधर्मार्थसाधनम् आद्यन्तिमानवाः सर्वे धनाभावेन केवलं सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता केन वा ब्रह्मविद्यापि केन मृत्युविनाशिनी सर्वेषां सारभूतैका विद्यानां केन कीर्तिता प्रत्यक्षसिद्धिदा ब्रह्मं तामच्चक्ष्वदयानिधे सनत्कुमार उवाच साधुपृष्टं महाभागा सर्वलोकहितैषिणी महातामेष धर्मश्च नान्येषामिति मे मतिः ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः स्रं प्रोक्तं कथयाम्यद्य लक्ष्मीनामसहस्रकं यस्योच्चारणमात्रेण दारिद्र्यान्युच्यते नरः किं पुनस्तज्जपाज्ञापि सर्वेष्टार्थानवाप्नुयात् अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकरमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्ठुप्चन्दः विष्णुमायाशक्तिमहालक्ष्मीः परा देवता श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः क्रौमित्यादिषडङ्गन्यासः ध्यानम् पद्मनाभप्रियां देवीं पद्माक्षीं पद्मवासिनीं पद्मवक्त्रां पद्महस्तां वन्दे पद्मामहर्निशं पूर्णेन्दुबिम्बवदनां रत्नाभरणभूषितां वरदाभयहस्ताभ्यं ध्यायेच्चन्द्रसहोदरीं इच्छारूपां भगवतः सच्चिदानन्दरूपिणीं सर्वज्ञां सर्वजननीं विष्णुवक्षस्थलालयां दयालुमनिसं ध्यायेत् सुखसिद्धिस्वरूपिणी हरिः नित्यागतानन्तनित्यानन्दिनी जनरञ्जनी नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी महालक्ष्मीर्महाकाली महाकन्या सरस्वती भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ईशावास्या महामाया महादेवी महेश्वरी हृल्लेखा परमाशक्तिर्मातृका बीजरूपिणी नित्यानन्दा नित्यबोधानादिनी जनमोदिनी सत्यप्रत्ययिनी चैव स्वप्रकाशात्मरूपिणी त्रिपुरा भैरवी विद्या हंसा वागीश्वरी शिवा वाग्देवी च महारात्रिः काडरात्रिस्त्रिलोचनी भद्रकाली कराली च महाकाली तिलोत्तमा काली करालवक्त्रान्ता कामाक्षी कामदा शुभा चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी त्रैलोक्यजननी देवी त्रैलोक्यविजयोत्तमा सिद्धलक्ष्मी क्रियालक्ष्मीर्मोक्षलक्ष्मी प्रसादिनी उमा भगवती दुर्गा चांद्री दाक्षायणी शिखा प्रत्यङ्गिराधरा वेला लोकमाता हरिप्रिया पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी अरूपा बहुरूपा च विरूपा विश्वरूपिणी पंचभूतात्मिका वाणी पंचभूतात्मिका परा कालिका पंचिका वाग्नी हविः प्रत्यधिदेवता देवमाता सुरेशान वेद गर्भांबिका धृतिः संख्या जातिः क्रिया शक्तिः प्रकृतिर्मोहिनी मही यज्ञ विद्या महाविद्या गुह्य विद्या विभावरी ज्योतिष्मती महामाता सर्वमंत्रफलप्रदा दारिद्र्यध्वंसिनी देवी हृदयग्रंथिभेदिनी सहस्रादित्य संकासा चंद्रिका चंद्ररूपिणी गायत्री सोम संभूति सावित्री प्रणवात्मिका शांकरी वैष्णवी ब्राह्मी सर्वदेव नमस्कृता सेव्या दुर्गा कुबेराक्षी करवीर निवासिनी जया च विजया चैव जयंती चापराजिता कुब्जिका कालिका शास्त्री वीणा पुस्तकधारिणी सर्वज्ञ शक्ति श्री शक्तिर्ब्रह्म विष्णु शिवात्मिका इडा पिंगलिका मध्या मृणाली तंतुरूपिणी यज्ञे सानी प्रधा दीक्षा दक्षिणा सर्वमोहिनी अष्टांग योगिनी देवी निर्भीज ध्यान गोचरा सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी वेदशास्त्र प्रदा देवी षडंगादिपदक्रमा शिवाधात्री शुभानंदा यज्ञकर्मस्वरूपिणी प्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी एकाक्षर परा तारा भवबंध विनाशिनी विश्वंभराधराधारा निराधाराधिकस्वरा राकाकुहुरमावास्या पूर्णिमानुमति द्युतीः सिनी वाली शिवावस्या वैश्य देवी पिसंगिला पिप्पला च विशालाक्षी रक्षोग्नी वृष्टिकारिणी दुष्ट विद्राविणी देवी सर्वोपद्रवनाशिनी शारदा शिरसंधाना सर्वशास्त्रस्वरूपिणी युद्ध मध्यस्थिता देवी सर्वभूत प्रभंजनी अयुद्धा युद्ध रूपा च शांता शांतिस्वरूपिणी गंगा सरस्वती वेणी यमुना नर्मदा पगा समुद्रवसनावासा ब्रह्मांडश्रेणी मेखला पंचवक्त्रादशभुजा शुद्धस्फटिकसन्निभा रक्ता कृष्णा सीता पीता सर्वा वर्णा निरीश्वरी कालिका चक्रिका देवी सत्या तुवटुका स्थिता तरुणी वारुणी नारी ज्येष्ठा देवी सुरेश्वरी विश्वंभरधरा कर्त्री गणार्गण विभंजनी संध्या रात्रिर्दिवा ज्योत्स्ना कला काष्ठा निमेषिका उर्वी कात्यायनी शुभ्रा संसारार्णवतारिणी कपिला कीलिका शोका मल्लिका नवमल्लिका देविका नंदिका शांता भंजिका भयभंजिका कौशिकी वैदिकी देवी सौरी रूपाधिकातिभा दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा श्री सौम्य लक्ष्मणातीत दुर्गा सूत्र प्रबोधिका श्रद्धा मेधा कृतिः प्रज्ञा धारणा कांतिरेव च श्रुतिस्मृतिर्धृतिर्धन्या भूतिरिष्टर्मनीषिणी विरक्तिर्व्यापिनी माया सर्वमाया प्रभंजनी महेन्द्री मंत्रिणी सिंही चेन्द्रजालस्वरूपिणी अवस्थात्रय निर्मुक्ता गुणत्रय विवर्जिता ईशनत्रय विर्मुक्ता सर्वरोग विवर्जिता योगी ध्यानांत गम्या च योग ध्यान परायणा त्रयी शिखा विशेषज्ञा वेदांत ज्ञान रूपिणी भारती कमला भाषा पद्मा पद्मावती कृतिः गौतमी गोमती गौरी ईशान हंसवाहनी नारायणी प्रभाधारा जाह्नवी शंकरात्मजा चित्रघंटा सुनंदा श्रीर्मानवी मनुसंभवा स्तंभनीक्षोभिणी मारी ब्राह्मिणी शत्रुमारिणी मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी देवदुर्गा महादुर्गा स्वप्नदुर्गाष्टभैरवी सूर्यचंद्राग्निरूपा च ग्रहनक्षत्ररूपिणी बिंदुनादकलातीता बिंदुनादकलात्मिका दशवायुजयाकारा कला षोडश संयुता काश्यपी कमला देवी नादचक्रनिवासिनी मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी अविद्या सार्वरी भुंजा जंभासुरनिबर्हिणी श्रीकाया श्रीकला शुभ्रा कर्म निर्मूलकारिणी आदिलक्ष्मीर्गुणाधारा पंचब्रह्मात्मिका परा श्रुतिर्ब्रह्ममुखा वासा सर्वसंपत्तिरूपिणी मृतसंजीविनी मैत्री कामिनी कामवर्जिता निर्वाणमार्गदा देवी हंसिनी कालिका क्षमा सपर्या गुणिनी भिन्ना निर्गुणा खंडितशुभा स्वामिनी वेदिनी शक्या सांबरी चक्रधारिणी दंडिनी मुंडिनी व्याघ्री शिखिनी सोमसंहति चिंतामणिश्चिदानंदा पंचबाण प्रबोधिनी बाणश्रेणी सहस्राक्षी सहस्रभुजपादुका संध्याबलिस्त्रिसंध्याख्या ब्रह्मांडमणिभूषणा वासवी वारुणी सेना कुलीका मंत्ररंजनी जितप्राणस्वरूपा च कांता काम्यवरप्रदा मंत्रब्रह्मण विद्यार्था नादरूपा हविष्मती अधर्वणी श्रुतिशून्या कल्पना वर्जिता नती सत्ता जाति प्रमामेया प्रमिति प्राणदा गति अपर्णा पंचवर्णा च सर्वदा भुवनेश्वरी त्रैलोक्यमोहिनी विद्या सर्वभद्रीक्षराक्षरा हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी कैवल्यपदवी रेखा सूर्यमंडल संस्थिता सोममंडल मध्यस्था वह्निमंडल संस्थिता वायुमंडल मध्यस्था व्योममंडल संस्थिता चक्रिका चक्र मध्यस्था चक्रमार्ग प्रवर्तिनी कोकिलाकुलचक्रेशा पक्षतिः पंक्तिपावनी सर्वसिद्धांत मार्गस्था षड्वर्णा वरवर्जिता शतरुद्रहरा हंत्री सर्वसंहारकारिणी पुरुषा पौरुषी तुष्टि सर्वत्र प्रसूतिका अर्धनारीश्वरी देवी सर्वविद्या प्रदायिनी भार्गवी याजुषी विद्या सर्वोपनिषदास्थिता व्योमकेशाखिल प्राणा पंचकोशा विलक्षणा पंचकोशात्मिका प्रचक्रुंच ब्रह्मात्मिका शिवा जगज्जराजनित्री च पंचकर्म प्रसूतिका वाग्देव्याभरणाकारा सर्वकाम्यस्थिता स्थिति अष्टादश चतुष्षष्टिपीठिका विद्ययायुता कालिका कर्षण श्यामा यक्षिणी किन्नरेश्वरी केतकी मल्लिका शोका वाराही धरणी ध्रुवा नारसिंही महोग्रास्या भक्ता नामार्तिनाशिनी अंतर्बला स्थिरा लक्ष्मीर्जरा मरणनाशिनी श्रीरंजिता महाकाया सोमसूर्याग्निलोचना अदितिर्देव माता च अष्टपुत्राष्टयोगिनी अष्टप्रकृतिरष्टाष्ट विभ्राजद्विकृताकृतिः दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी शाकंबरी महासोणा गरुडो परिसंस्थिता सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा अकारादिक्षकारांता सर्वविद्याधिदेवता मंत्रव्याख्यान निपुणा ज्योतिश्शास्त्रैकलोचनी इडा पिंगलिका मध्यसुषुम्ना ग्रंथिभेदिनी कालचक्राश्रयोपेता कालचक्रस्वरूपिणी वैशारदी मतिश्रेष्ठा वरिष्ठा सर्वदीपिका वैनायकी वरारोहा श्रोणिवेला बहिर्वलिः जम्भिनी जृम्भिणी जम्भकारिणी गणकारिका शरणी चक्रिकानन्ता सर्वव्याधिचिकित्सकी देवकी देवसंकासा वारिधिः करुणाकरा सर्वरी सर्वसंपन्ना सर्वपापप्रभञ्जनी एकमात्रा द्विमात्रा च त्रिमात्रा च तथा परा अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्धार्धपरा परा एकवीरा विशेषाख्या षष्ठी देवी मनस्विनी नैष्कर्म्या निष्कला लोका ज्ञानकर्माधिका गुणा सबन्ध्वानन्द सन्दोहा व्योमाकारा निरूपिता गद्यपद्मात्मिका वाणी सर्वालंकार संयुता साधुबन्धपदन्यासा सर्वौको घटिकावलिः षट्कर्मा कर्मसाकारा सर्वकर्म विवर्जिता आदित्यवर्णा चापर्णा कामिनी वररूपिणी ब्रह्माणी ब्रह्मसंताना वेदवागीश्वरी शिवा पुराणन्यायमीमांसा धर्मा शास्त्रागमश्रुता सद्यो वेदवती सर्वा हंसी विद्याधिदेवता विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी वैदिकी वेदरूपा च कालिका कालरूपिणी नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी हिरण्यवर्णरूपा च हिरण्यपदसंभवा कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ब्रह्मसंपत्तिरूपा च ब्रह्मसंपत्तिकारिणी वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी एकाक्षरपरायुक्ता सर्वदारिद्र्यभञ्जिनी पाशाङ्कुशान्विता दिव्या वीणा व्याख्या सूत्रभृत् एकमूर्तिस्त्रयी मूर्तिर्मधुकैटभभञ्जनी सांख्या सांख्यवती ज्वाला ज्वलन्ती कामरूपिणी जाग्रन्ती सर्वसंपत्ति सुषुप्ता स्वेष्टदायिनी कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना सर्वा वासा सुवासा च बृहस्सृष्टिश्च साक्वरी छन्दो गण प्रतिष्ठा च कल्माशी करुणात्मिका चक्षुष्मती महाघोषा खड्गचर्मधरासनिः शिल्पवैचित्र्य विद्योता सर्वतो भद्रवासिनी अचिन्त्या लक्ष्मणाकारा सूत्रभाष्य निबन्धना सर्ववेदार्थसंपत्ति सर्वशास्त्रार्धमातृका अकारादिक्षकारन्तमातृवर्णकृतस्थला सर्वलक्ष्मी सदानन्दा सारविद्या सदाशिवा सर्वज्ञः सर्वशक्तिश्च खेचरी रूपघोच्छ्रिता अणिमादिगुणोपेता परा काष्ठा परा गतिः हंसयुक्तविमानस्था हंसारूढा शशिप्रभा भवानी वासनाशक्तिराकृतिस्थाखिलाखिला तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गा विनोदिनी वर्षा च वार्षिका चैव रुग्यजुस्सामरूपिणी महानदी नदी पुण्या गण्यपुण्यगुणक्रिया समाधिगतलभ्यार्था श्रोतव्यास्वप्रिया घृणा नामाक्षरपरा देवी उपसर्गनखाञ्चिता निपातो रुद्वयी जङ्घा मातृका मन्त्ररूपिणी आसीना च शयना च तिष्ठन्ती धावनाधिका लक्ष्यलक्षणयोगाढ्या तादृप्यगणनाकृतिः नैकरूपा नैकरूपा नेन्दुरूपा सदाकृतिः समासतद्धिताकारा विभक्तिवचनात्मिका स्वाहाकारा स्वधाकारा श्रीपत्यार्थाङ्गनन्दिनी गम्भीरा गहना गुह्या योनिलिङ्गार्थधारिणी शेषवासुकि संसेव्या चपलावरवर्णिनी कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलका శక్తి బీజాత్మిక సర్వ మంత్రేష్టాక్షయ కామనా ఆగ్నేయే పార్థివ ఆప్యా వాయవ్యా వ్యోమకేతనా సత్య జ్ఞానాత్మికానంద బ్రాహ్మీ బ్రహ్మ సనాతనీ అవిద్యా వాసనా మాయా ప్రకృతి సర్వమోహిని శక్తిర్ధారణ శక్తిశ్చ చిదచిచ్ఛక్తి యోగిని వక్త్రారుణా మహామాయా మరీచిర్మదమర్దిని విరట్ స్వాహ స్వధా శుద్ధా నిరూపాస్తి సుభక్తిగా విరూపితాద్వయీ విద్యా నిత్యా నిత్యస్వరూపిణి వైరాజమార్గ సంచారా సర్వసత్పథదర్శిని జాలంధరీ మృడానీ చ భవానీ భవభంజని త్రైకాళిక జ్ఞానతంతుస్త్రిజాలజ్ఞానదాయిని నాదాతీతాస్మతి ప్రజ్ఞా ధాత్రి రూపా త్రిపుష్కరా పరాజిత విధానజ్ఞా విశేషిత గుణాత్మిక హిరణ్యకేశిని హేమా బ్రహ్మసూత్ర విచక్షణ అసంఖ్యేయ పదార్థాంతస్వర వ్యంజన వైఖరి మధుజిహ్వా మధుమతి మధుమాసోదయా మధు మాధవీ చ మహాభాగా మేఘ గంభీర నిస్వనా బ్రహ్మ విష్ణు మహేశాది జ్ఞాతవ్యార్థ విశేషగా నాభౌ వహ్నిశిఖాకారా లలాటే చంద్ర సన్నిభా భ్రూమధ్యే భాస్కరాకారా సర్వతారాకృతి హృది కృత్తికాది భరణ్యంత నక్షత్రేశ్చర్చితోదయ గ్రహ విద్యాత్మికా జ్యోతిర్జ్యోతిర్విన్మతి జీవికా బ్రహ్మాండ గర్భిణీ బాలా సప్తావరణ దేవత వైరాజోత్తమ సామ్రాజ్యా కుమారకుశలోదయ భగళా భ్రమరాంబా చ శివదూతి శివాత్మికా మేరువింద్యాధి సంస్థానా కాశ్మీరపురవాసిని యోగ నిద్రా మహానిద్రా వినిద్రా రాక్షసాశ్రిత సువర్ణదా మహాగంగా పంచాఖ్యా పంచ సంహతి సుప్రజాతా సువీర్యా చ సుపోషా సుపతి శివ సుగృహారక్త బీజాంతా హత కందర్ప జీవికా సముద్ర వ్యోమ మధ్యస్థా సమబిందు సమాశ్రయ సౌభాగ్యరస జీవాతు సారా సార వివేకదృక్ త్రివళ్యాది సుపుష్టాంగా భారతీ భరతాశ్రిత నాద బ్రహ్మమయీ విద్యా జ్ఞాన బ్రహ్మమయీ పరా బ్రహ్మనాడీ నిరుక్తిశ్చ బ్రహ్మ కైవల్య సాధన కాలకేయ మహోదార వీర్య విక్రమ రూపిణీ బడబాగ్నిశిఖా వక్త్రా మహాకబళ తర్పణ మహాభూత మహాదర్ప మహాసారా మహాక్రతు పంచభూత మహాగ్రాసా పంచభూతాదిదేవత సర్వ ప్రమాణ సంపత్తి సర్వరోగ ప్రతిక్రియ బ్రహ్మాండాంతర్బహిర్వ్యాప్తా విష్ణు వక్షో విభూషిణి శాంకరీభిది వక్త్రస్థా ప్రవరా పరహేతుకీ హేమమాలా శిఖామాలా త్రిశిఖా పంచలోచనీ సర్వాగమ సదాచారా మర్యాదాయాతు భంజనీ పుణ్యశ్లోక ప్రబంధాఢ్యా సర్వాంతర్యామి రూపిణీ సామగాన సమారాధ్య శ్రోతృకర్ణరసాయన జీవలోకైక జీవాతుర్భద్రోదార విలోకన తటిత్కోటిల సత్కాంతిస్తరుణీ హరిసుందరీ మీననేత్రా చ నేంద్రాక్షి విశాలాక్షీ సుమంగళ సర్వమంగళ సంపన్నా సాక్ష్మాన్ మంగళదేవత దేహహృద్ధీపికా దీప్తిర్జిహ్మ పాప ప్రణాశిని అర్ధచంద్రోల సద్భ్రంష్టా యజ్ఞవాటీ విలాసిని మహాదుర్గా మహోత్సాహ మహాదేవ బలోదయా డాకినీఢ్యా సాకినీఢ్యా సాకినీఢ్యా సమస్తజుట్ నిరంకుశానాకవంద్యా షడాధారాధిదేవత భువన జ్ఞాన నిశ్రేణీ భువనాకార వందరీ శాశ్వతీ శాశ్వతాకారా లోకానుగ్రహకారిణి సారసీమానసీ హంసీ హంసలోక ప్రదాయిని చిన్ముద్రాలంకృతకరా కోటి సూర్య సమప్రభా सुखप्राणिशिरोरेखा सदृष्टप्रदायिनी सर्वसाङ्कर्यदोषग्निग्रहोपद्रवनाशिनी शुद्रजन्तुभयग्नी च विषरोगादिभञ्जनी सदा शान्ता सदा शुद्धा गृहच्छिद्रनिवारिणी कलिदोषप्रशमनी कोलाहलपुरस्थिता गौरी लाक्षणिकी मुख्या जगन्याकृतिवर्जिता माया विद्या मूलभूता वासवी विष्णुचेतना वादिनी वसुरूपा च वसुरत्नपरिच्छदा छांदसी चंद्रहृदया मंत्रस्वच्छंदभैरवी वनमाला वैजयंती पंचदिव्यायुधात्मिका पीतांबरमयी चमचत्कौस्तुभा हरिकामिनी नित्या तद्ध्या रमा रामा रमणी मृत्युभंजनी ज्येष्ठा काष्ठादनिष्ठान्ता सरांगी निर्गुणप्रिया मैत्रेयी मित्रविन्दा च शेषकलाशया वाराणसी वासलभ्या आर्या वर्तजनस्तुता जगदुत्पत्ति संस्थान संहारत्रय कारणा त्वमम्ब विष्णु सर्वस्वं नमस्तेस्तु महेश्वरी सिद्धलक्ष्मीर्महाकाली महालक्ष्मीर्नमोस्तुते सद्यो जाताभि पञ्चाग्निरूपा पञ्चक पञ्चका यन्त्रलक्ष्मीर्भवत्यादिर्याद्याद्येते नमो नमः पृष्ट्यादिकारणाकार वितते दोषवर्जिते जगल्लक्ष्मीर्जगन्मातर्विष्णुपत्नी नमोस्तुते नवकोटिमहाशक्तिसमुपास्य पदाम्बुजे कनत्सौवर्णरत्नाढ्यसर्वाभरणभूषिते अनन्तनित्यमहिषी प्रपञ्चेश्वरनायकी अच्युच्छ्रितपदान्तस्थे परमव्योमनायकी नाकपृष्ठकताराध्ये विष्णुलोकविलासिनी वैकुण्ठराजमहिषी श्रीरङ्गनगराश्रिते रङ्गनायकी भूपुत्री कृष्णे वरदवल्लभे कोटिब्रह्मादिसंसेव्ये कोटिरुद्रादिकीर्तिते मातुलुङ्गमयं खेटं सौवर्णचषकं तथा च वरदाभाये पाशमङ्कुशकं शङ्खं चक्रं शूलं कृपाणिकां धनुर्बाणौ चाक्षमालां चिन्मुद्रामपि बिभ्रतीं अष्टादशभुजे लक्ष्मी महाष्टादशपीठगे भूमिनीलादिसंसेव्ये स्वामिचित्तानुवर्तिनी पद्मे पद्मालये पद्मपूर्णकुम्भाभिषेचिते इन्दिरेन्दिन्दिराभाक्षि क्षीरसागरकन्यके भार्गवी त्वं स्वतं त्रेच्चा वशीकृतजगत्पति मङ्गलं मङ्गलानां त्वं देवतानां च देवता त्वमुत्तमोत्तमानां च त्वं श्रेयः परमामृतम् धनधन्याभिवृद्धिश्च सार्वभौमसुखोच्छ्रया आन्दोलिकादिसौभाग्यं मत्ते भादिमहोदयः पुत्रपौत्राभिवृद्धिश्च विद्याभोगबलाधिकम् आयुरारोग्यसम्पत्तिरष्टैश्वर्यं त्वमेव हि परमेशी विभूतिश्च सूक्ष्मत्सूक्ष्मतरा गतिः सदयापाङ्गसन्दत्तब्रह्मेन्द्रादिपदस्थितिः अव्याहतमहाभाग्यं त्वमेवाक्षोभविक्रमः समन्वयश्च वेदानामविरोधस्त्वमेव हि निःश्रेयसपदप्राप्तिसाधनं फलमेव च श्रीमन्त्रराजराज्ञी च श्रीविद्याक्षेमकारिणी श्रीं बीजजपसन्तुष्टा ऐं ह्रीं श्रीं बीजपालिका प्रपत्तिमार्गसुलभा विष्णुप्रथमकिङ्करी क्लिङ्कारार्थसवित्री च सौमङ्गल्यादिदेवता श्रीषोडशाक्षरी विद्या श्रीयन्त्रपुरवासिनी सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोस्तुते पुनः पुनर्नमस्तेऽस्तु साष्टाङ्गमयुतं पुनः सनत्कुमार उवाच एवं स्तुता महालक्ष्मीर्ब्रह्मरुद्रादिभिः सुरैः समद्भिरार्तद्दीनैश्च निःसद्वैर्भोगवर्जितैः ज्येष्ठाजुष्टैश्च निःस्रीकैः संसारात् स्वपरायणैः विष्णुपत्नी ददौ तेषां दर्शनं दृष्टितर्पणं शरत्पूर्णेन्दुकोट्याभदवलापाङ्गवीक्षणैः सर्वां सत्त्वसमाविष्टांश्चक्रे हृष्टावरं ददौ महालक्ष्मी उवाच नाम्नां साष्टसहस्रं मे प्रमदाद्यापि यः सकृत् कीर्तये तत्कुले सत्यं वसाम्याचन्द्रतारकम् ॐ पुनर्निमया ज्ञप्तुर्मदेकः शरण्यश्च च मातृवत्सानुकम्पाहं पोषकी स्यामहर्निशं मन्नामस्मरतां लोके दुर्लभं नास्ति चिन्तितं मत्प्रसादेन सर्वेऽपि स्वेष्टार्थमवाप्स्यत लुप्तवैष्णवधर्मस्य मद्भृत्तेष्वकीर्तिनः भक्तिप्रपत्तिहीनस्य वन्द्यो नाम्नाञ्जरापि ये तस्मादवश्यं तैर्दोषैर्विहीनः पापवर्जितः जपेत् साष्टसहस्रं मे नाम्नां प्रत्यहमादरात् साक्षादलक्ष्मीपुत्रोऽपि दुर्भाग्योऽप्यलसोऽपि वा अप्रयत्नोऽपि मूढोऽपि विकलः पतितोऽपि च अवसात् प्राप्नुयाद्भाग्यं मत्प्रसादेन केवलम् स्पृहेयमचिरादेवाः वरदानाय जापिनः ददामि सर्वमिष्टार्थं लक्ष्मीति स्मरतां ध्रुवं सनत्कुमार उवाच इत्युक्त्वान्तर्धदे लक्ष्मी वैष्णवी भगवत्कला इष्टापूर्ता च सुकृतं भागधेयं च चिन्तितं स्वस्थानं च भोगं च विजयं लेभिरे सुराः तदेतत्प्रदाम्यद्य लक्ष्मी नाम सहस्रकं योगिनः पठति क्षिप्रं चिन्तितार्थनवाप्स्यध गार्ग्य उवाच सनत्कुमार योगीन्द्र इत्युक्त्वा सदयानिधिः अनुगृह्य ययौ क्षिप्रं तांश्च द्वादश योगिनः तस्मादेतद्रहस्यं च गोप्यं जप्यं प्रयत्नतः अष्टम्यां च चतुर्थस्यां नवम्यां भृगुवासरे पौर्णमास्याममायां च सर्वकाले विशेषतः जपेद्वानित्यकार्येषु सर्वान् कामानवाप्नुयात् इति श्रीस्कन्दपुराणे सनत्कुमारसंहिताया श्रीलक्ष्मीसहस्रनामस्तोत्रं समाप्तम्।